ప్రజాపతిగుంహవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పత ఆనశృణ్వన్నోతిభిశ్చేదసాదనం శ్రీమహాగణాధిపతయే నమః శ్రీశివసహస్రనామస్తోత్రరత్నపీఠికా వందే శంభుమాపతిం సురగురుం వందే జగత్కారణం వందే పన్నగభూషణం మృగధరం వందే పశూనాం పతిం వందే సూర్యశశాంకవన్నినయనం వందే ముకుందప్రియం వందే భక్తజనాశ్రయం చ వరదం వందే శివం శంకరం వాసుదేవః తతః సప్రయతో భూత్వా మమ తాత యుధిష్ఠిరా ప్రాంజలిః ప్రాహ విప్రర్షిర్నామ సంగ్రహమాదితః ఉపమన్యుః బ్రహ్మ ప్రోక్తైర్ఋషి ప్రోక్తైర్వేద వేదాంగ సంభవైః సర్వలోకేషు విఖ్యాతం స్తుత్యం స్తోష్యామి నామభిః మహద్భిర్విహితైః సత్యైః సిద్ధైః సర్వార్థసాధకైః ఋషిణా తండినా భక్త్యా కృతైర్వేదకృతాత్మనా యథోక్తైః సాధుభిః ఖ్యాతైర్మునిభిస్తత్వదర్శిభిః ప్రవరం ప్రథమం స్వర్గం సర్వభూతహితం శుభం శ్రుతైః సర్వత్ర జగతి బ్రహ్మలోకావతారితైః సత్యైస్తత్పరమం బ్రహ్మ బ్రహ్మ ప్రోక్తైః సనాతనం వక్ష్యే యదుపులశ్రేష్ఠ శృణుష్వాపహితో మమ వరయైనం భవం దేవం భక్తస్వం పరమేశ్వరం తేన తే శ్రావయిష్యామి యత్తద్బ్రహ్మ సనాతనం న శక్యం విస్తరాకృత్సం వక్తుం శర్వస్య కేనచిత్ యుక్తేనాపి విభూతీనామపి వర్షశతైరపి యస్యాది మధ్యమాంతాని గమ్యంతేన సురైరపి కస్తస్య శక్నుయాత్ వక్తుం గుణాన్ కాస్మ్యేన మాధవ కిందు దేవస్య మహతః సంక్షిప్తార్థపదాక్షరం శక్తితశ్చరితం వక్ష్యే ప్రసాదాత్తస్య ధీమతః అప్రాప్య తు తదోనుజ్ఞాం న శక్యస్తోతుమీశ్వరః యదా తేనాభ్యనుజ్ఞాతస్తుతో వై స తదా మయా అనాదినిధనస్యాహం జగద్యోనేర్మహాత్మనః నామ్నాం కించిత్ సముద్దేశం వక్ష్యామ్యవ్యక్తయోగినః వరదస్య వరేణ్యస్య విశ్వరూపస్య ధీమతః శృణు నామ్నాం చయం కృష్ణ యదుక్తం పద్మయోనినా దశ నామ సహస్రాణి యాన్యాః ప్రపితామహః తాని నిర్మచ్ఛ మనసా దధ్నో ఘృతమివోద్ధృతం గిరేః సారం యథా హేమ పుష్పసారం యథా మధు ఘృతాత్ సారం యథా మండం తథైతత్ సారముద్ధృతం సర్వపాపాపహమిదం చతుర్వేద సమన్వితం ప్రయత్నేనాధిగంతవ్యం ధార్యం చ ప్రయతాత్మనా మాంగళ్యం పౌష్టికం చైవ రక్షోఘ్నం పావనం మహత్ ఇదం భక్తాయ దాతవ్యం శ్రద్ధయా నాస్తికాయ చ నాశ్రద్ధానరూపాయ నాస్తికాయాజితాత్మనే యశ్చాభ్యసూయతే దేవం కారణాత్మానమీశ్వరం సకృష్ణనరకం యాతి సహ పూర్వైః సహాత్మజైః ఇదం ధ్యానమిదం యోగమిదం ధ్యేయమనుత్తమం ఇదం జప్యమిదం జ్ఞానం రహస్యమిదముత్తమం यम् ज्ञात्वा ह्यन्तकालेऽपि गच्छेत परमाम् गतिम् पवित्रम् मङ्गलम् मेध्यम् कल्याणमिदमुत्तमम् इदम् ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः सर्वस्तवानाम् राजत्वे दिव्यानाम् समकल्पयत् तदा प्रभृति चैवायमीश्वरस्य महात्मनः स्तवराज इति ख्यातो जगत्यमरपूजितः ब्रह्मलोकादयम् स्वर्गे स्तवराजोऽवतारितः यतस्तण्डिः पुरा प्रापतेन तण्डीकृतोऽभवत् स्वर्गाच्चैवात्र भूलोकम् तण्डिना ह्यवतारितः सर्वमङ्गलमाङ्गल्यम् सर्वपापप्रणाशनम् निगदिष्ये महाबाहो स्तवानामुत्तमम् स्तवम् ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम् तेजसामपि यत्तेजस्तपसामपि यत्तपः शान्तानामपि यश्शान्तो द्युतीनामपि याद्युतिः दान्तानामपि यो दान्तो धीमतामपि या च धीः देवानामपि यो देव ऋषीणामपि यस्पृषिः यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः रुद्राणामपि यो रुद्रः प्रभा प्रभवतामपि योगिनामपि यो योगी कारणानाम् च कारणम् यतो लोकाः सम्भवन्ति सम्भवन्ति यः पुनः सर्वभूतात्मभूतस्य हरस्यामि ततेजसः अष्टोत्तरसहस्रम् तु नाम्नाम् सर्वस्य मे शृणु यच्छ्रुत्वा मनुजम् व्याघ्र सर्वान् कामानवाप्स्यसि इति श्रीशिवसहस्रनामस्तोत्ररत्नपीठिका समाप्ता। अथ श्रीशिवसहस्रनामस्तोत्ररत्नम् ॐ स्थिरस्थाणुः प्रभुर्भेमः प्रवरो वरदो वरः सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः श्मशानवासी भगवान् खचरो गोचरोर्दनः अभिवाद्यो महाकर्मा तपस्वी भूतभावनः उन्मत्तवेषः प्रच्छन्नः सर्वलोकप्रजापतिः महारूपो महाकायो वृषरूपो महायशः महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः लोकपालोऽन्तर्हितात्मा प्रसादो नीललोहितः पवित्रम् च महांश्चैव नियमो नियमाश्रितः सर्वकर्मा स्वयम्भूतादिरादिकरो निधिः सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः चन्द्रः सूर्यस्य निःकेतुर्ग्रहो ग्रहपतिर्वरः आदिरन्तोलयः कर्ता मृगबाणार्पणो नघः महातपा घोरतपा अदीनोदीनसाधकः संवत्सरकरो मन्त्रः प्रमाणम् परमम् तपः योगी योज्यो महाबीजो महारेता महाबलः सुवर्णरेता सर्वज्ञः सुबीजो बीजवाहनः दशबाहुस्वनिमिषो नीलकण्ठ उमापतिः विश्वरूपस्वयं श्रेष्ठो बलवीरो बलो गणः गणकर्ता गणपतिर्दिग्वासाः कामयेव च मन्त्रवित् परमो मन्त्रः सर्वभावकरो हरः कमण्डलुधरो धन्वी बाणहस्तः कपालवान् अशनीशतघ्नी खड्गी पट्टसी चायुधी महान् सुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च शृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः अजश्च बहुरूपश्च गङ्गाधारी कपर्द्यपि ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभस्थलः त्रिजटश्चीरवासाश्च रुद्रः सेनापतिर्विभुः नक्तम् च रोहश्चरश्च तिग्ममन्युः सुवर्चसः गजः दैत्यः कालो लोकधाता गुणाकरः सिंहशार्दूलरूपश्च व्याघ्रचर्माम्बराभृतः कालयोगी महानाथः सर्वकामश्च तुष्पथः निशाचरः प्रेतचारी भूतचारी महेश्वरः बहुभूतो बहुधरः स्वर्भानुरमितो गतिः नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः महाघोरतपाशूरो नित्यो नीहो निरालयः सहस्रहस्तो विजयो व्यवसायो ह्यतमृतः अमर्षणो मर्षणात्मा यज्ञः कामनाशकः दक्षयागापहारी च सुसहो मध्यमस्तथा तेजोपहारी बलः मुदितोऽर्थोजितो वरः गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः न्यग्रोधरूपो न्यग्रोधवृक्षकर्णस्थिर्विभुः सुतीक्ष्णदशनश्चैव महाकायो महाननः विश्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् विष्णुप्रसादितो यज्ञः समुद्रो बडवामुखः हुताशनसहायश्च प्रशान्तात्मा हुताशनः उग्रतेजा महातेजा जन्यो विजयकालवित् ज्योतिषामयनम् सिद्धिः सर्वविग्रह एव च सिखी मुण्डी जटीज्वाली मूर्तिजो मूर्धगो बली वैष्णवः प्रजवीताली खेली कालकटङ्कटः नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोगमः प्रजापतिर्विश्वबाहुर्विभागः सर्वतोमुखः विमोचनः सुसरणो हिरण्यकवचोद्भवः मेघजो बलचारी च महीचारी स्तुतस्तथा सर्वतूर्यविनोदी च सर्ववाद्यपरिग्रहः व्याणरूपो गुहावासी ग्रहमाली तरङ्गवित् त्रिदशः कालदृक्कर्म सर्वबन्धविमोचनः बन्धनस्वसुरेन्द्राणाम् युधि शत्रुविनाशनः साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः प्रस्कन्दनो विभागज्ञो ह्यतुल्यो यज्ञभागवित् सर्ववासः सर्वचारी दुर्वासा वासवोमरः हैमो हेमकरो यज्ञः सर्वधारी धरोत्तमः लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः मुख्यो मुख्यश्च देहश्च काहणिः सर्वकामदः सर्वकालप्रमादश्च सुबलो बलरूपभृत् सर्वकामप्रदश्चैव सर्वतः सर्वतो मुखः आकाशनिर्विरूपश्च निपातो ह्यवशः खगः रौद्ररूपोऽंशुरादित्यो बहुरश्मिः सुवर्चसि वसुवेगो महावेगो मनोवेगो निशाचरः सर्ववासी श्रियावासी उपदेशकरोकरः मुनिरात्मा निरालोकः सम्भग्नश्च सहस्रदः प्लक्षी च प्लक्षरूपश्च अतिदीप्तो विशाम्पतिः उन्मादो मदनः कामो ह्यस्मर्थोऽर्थकरो यशः वामदेवश्च वामश्च प्राग्दक्षिण उदङ्मुखः सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः महासेनो विशाखश्च षष्टिभागो गवाम्पतिः वज्रहस्तश्च विश्रम्भो च मूस्तम्भन एव च वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः वाचस्पत्यो वाजसमो नित्यमाश्रितपूजितः ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ईशान ईश्वरः कालो निशाचारी पिनाकभृत् निमित्तस्थो निमित्तम् च नन्दिर्नन्दिकरो हरिः नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः भगहारी निहन्ता च कालो ब्रह्मा पितामहः चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः इतिहासः सकल्पश्च गौतमोऽधनिशाकरः दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः अक्षरम् परमम् ब्रह्म बलवान् शक्तयेव च नीतिर्ह्यनीतिशुद्धात्मा शुद्धो मान्यो गतागतः बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रचित् वेदकारो मन्त्रकारो विद्वान् समरमर्दनः महामेघनिवासी च महाघोरो वशीकरः अग्निज्वालो महाज्वालो ह्यतिधूम्रोहुतो हविः वृषभः शङ्करो नित्यम् वर्चस्वी धूमकेतनः नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः स्वस्तिदस्वस्तिभावश्च भागी भागकरो लघुः उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः कृष्णवर्णः सुवर्णश्च इन्द्रियम् सर्वदेहिनाम् महापादो महाहस्तो महाकायो महायशः महामूर्धा महापात्रो महानेत्रो निशालयः महान्तको महाकर्णो महोष्ठश्च महाहनुः महानासो महाकम्बुर्महाग्रीवश्मशानभाक् महाभक्षामहोरस्को ह्यन्तरात्मा मृगालयः लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः महादन्तो महादंष्ट्रो महाजिह्वो महामुखः महानखो महारोमा महाकेशो महाजटः प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः स्नेहनो स्नेहनश्चैव अजितश्च महामुनिः वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः गण्डली मेरुधामा च देवाधिपतिरेव च अधर्वशीर्षः सामास्य रुक्सहस्रामिते क्षणः यजुः पादभुजो गुह्यः प्रकाशो जङ्गमस्तथा अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः नाभिर्नन्दिकरो भावः पुष्करस्थपतिस्थिरः द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः नक्तम् कलिश्च कालश्च मकरः कालपूजितः द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः नक्तम् कलिश्च कालश्च मकरः कालपूजितः सगणो गणकारश्च भूतवाहनसारथिः भस्माशयो भस्मगोप्ता भस्मभूतस्तरुर्गुणः लोकपालस्तथा लोको महात्मा सर्वपूजितः शुक्लस्ते शुक्लसम्पन्नः शुचिर्भूतनिषेवितः आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः कपिलः कपिशः शुक्ल आयुश्चैव परोपरः गन्धर्वो ह्यदितिस्ताक्ष्यः सुविज्ञेयः सुशारदः परश्वधायुधो देवो ह्यनुकारी सुबान्धवः तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः सर्वाङ्गरूपो मायावी सुहृतो ह्यनिलो नलः बन्धनो बन्धकर्ता च सुबन्धनविमोचनः स यज्ञारिः स कामारिर्महादंशो महायुधः बहुधा निन्दितः सर्वः शङ्करश्चन्द्रशेखरः अमरेशो महादेवो विश्वदेवः सुरारिः अहिर्बुद्ध्यो निलाभश्च चेकितानो हरिस्तथा अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः धन्वन्तरिर्धूमकेतुस्कन्दो वैश्रवणस्तथा धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवोधरः प्रभावः सर्वगो वायुरर्यमा सविता रविः उशङ्कुश्च विधाता च मान्धाता भूतभावनः विभुर्वर्ण विभावी च सर्वकामगुणावहः पद्मनाभो महागर्भश्चन्द्रवक्त्रो निलो नलः बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः सर्वाशयो गर्भचारी सर्वेषाम् प्राणिनाम् पतिः देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् कैलासगिरिवासी च हिमवद्गिरिसंश्रयः कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः वणिजो वर्धकी वृक्षो बकुलश्चन्दनच्छदः सारग्रीवो महाजत्रुरलोलश्च महौषधः सिद्धार्थकारी सिद्धार्थश्चन्दो व्याकरणोत्तरः सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः प्रभावात्मा जगत्कालः कालो लोकहितस्तनुः साराङ्गो नवचक्राङ्गः केतुमाली सभावनः भूतालयो भूतपतिरहोरात्रमनिन्दितः वर्धितः सर्वभूतानाम् निलयश्च विभुर्भवः अमोघः संयतो ह्यस्वो भोजनः प्राणधारणः धृतिमान्मरिमान् दक्षः सत्कृतश्च युगाधिपः गोपाली गोपतिर्ग्रामो गोचर्म वसनो हरिः हिरण्यबाहुश्च तथा गुहापालः प्रवेशकः प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः गान्धारश्च सुवासश्च तपः सक्तो रतिर्नरः महागीतो महानृत्यो ह्यप्सरो गणसेवितः महाकेतुर्महाधातुर्नैकसानुचरश्चलः आवेदनीय आवेशः सर्वगन्धसुखावहः तोरणस्तारणो वातः परिधिपतिखेचरः संयोगो वर्धनो वृद्धो ह्यति वृद्धो गुणाधिकः नित्य आत्मा सहायश्च देवासुरपतिः पतिः युक्तश्च युक्तबाहुश्च देवो दिविसुपर्वणः आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः वपुरा वर्तमानेभ्यो वसुश्रेष्ठो महापथः शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः अक्षश्च रथयोगी च सर्वयोगी महाबलः समाम्नायो समाम्नायस्तीर्थदेवो महारथः निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः रत्नप्रभूतो रक्ताङ्गो महान्नवनिपानवित् मूलम् विशालोऽभ्यमृतो व्यक्ताव्यक्तस्तपोनिधिः आरोहणोऽधिरोहश्च शीलधारी महायशाः सेनाकल्पो महाकल्पो योगो योगकरो हरिः युगरूपो महारूपो महानागहनो वधः न्यायनिर्वहणः पादः पण्डितो ह्यचलोपमः बहुमालो महामालः शशिहरिसुलोचनः विस्तारो लवणः कूपस्त्रियुगः सफलोदयः त्रिनेत्रश्च विषण्णाङ्गो मणिविद्धो जटाधरः बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः निवेदनः सुखाजातः सुगन्धारो महाधनुः गन्धशाली च भगवानुत्थानः सर्वकर्मणाम् मन्थानो बहुडो वायुः सकलः सर्वलोचनः तलस्तालः करस्थाली ऊर्ध्वसंहननो महान् छत्रम् सुच्छत्रो विख्यातो लोकः सर्वाश्रयक्रमः मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः हर्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात् सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् पवित्रम् त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गळः ब्रह्मदण्डविनिर्माता शतघ्नीपाशक्तिमान् पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः गभस्तिर्ब्रह्मकृद्ब्रह्म ब्रह्मविद्ब्राह्मणो गतिः अनन्तरूपश्चैकात्मा तिग्मतेजा स्वयम्भुवः ऊर्ध्वगात्मा पशुपतिर्वातरम्भा मनोजवः चन्दनी पद्मनाडाग्रः सुरभ्युत्तरणो नरः कर्णिकारमहास्रग्नी नीलमौळिः पिनाकभृत् उमापतिरुमाकान्तो जाह्नवी भृदुमाधवः वरो वरार्हो वरदो वरेण्यः सुमहास्मनः महाप्रसादो दमनः शत्रुः श्वेतपिङ्गळः प्रीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः साध्यर्षिर्वसुरादित्यो विवस्वान् सवितामृतः व्यासः सर्गः सुसङ्क्षेपो विस्तरः पर्ययो नरः ऋतुः संवत्सरो मासः पक्षः सङ्ख्यासमापनः कला काष्ठालवा मात्रा मुहूर्ताः क्षपाक्षणाः विश्वक्षेत्रम् प्रजाबीजम् लिङ्गमाद्यः सुनिर्गमः सरसद्व्यक्तमव्यक्तम् पिता माता पितामहः स्वर्गद्वारम् प्रजाद्वारम् मोक्षद्वारम् त्रिविष्टपम् निर्वाणम् ह्लादनम् चैव ब्रह्मलोकः परागतिः देवासुरविनिर्माता देवासुरपरायणः देवासुरगुरुर्देवो देवासुरनमस्कृतः देवासुरमहामात्रो देवासुरगणाश्रयः देवासुरगणाध्यक्षो देवासुरगणाग्रणीः देवादिदेवो देवर्षिर्देवासुरवरप्रदः देवासुरेश्वरो विश्वो देवासुरमहेश्वरः सर्वदेवमयो चिन्त्यो देवतात्मात्मसम्भवः उद्भृत्रिविक्रमो वैद्यो विरजो नीरजोमरः ईड्यो हस्तेश्वरो व्याघ्रो देवसिंहो नरर्षभः विविधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः सुयुक्तशोभनो वज्री पापानाम् प्रभवो व्ययः गुहः कान्तो निजः सर्गः पवित्रम् सर्वपावनः शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः अभिरामः सुरगणोऽभिरामः सर्वसाधनः ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः स्थावराणाम् पतिश्चैव नियमेन्द्रियवर्धनः सिद्धार्थः सिद्धभूतार्थो चिन्त्यः सत्यव्रतः शुचिः व्रताधिपः परम् ब्रह्म भक्तानुग्रहकारकः विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् यथा प्रधानम् भगवानिति भज्यास्तु मया यन्न ब्रह्मादयो देवा विदुस्तत्त्वेन नर्षयः स्तोतव्यमर्ज्यम् वन्द्यम् च कस्तोष्यति जगत्पतिम् भक्त्या त्वेवम् पुरस्कृत्य मया यज्ञपतिर्विभुः ततोऽभ्यनुज्ञाम् सम्प्राप्य स्तुतो मतिमताम्बरः शिवमेभिः स्तुवम् देवम् नामभिः पुष्टिवर्धनैः नित्ययुक्तश्चिर्भूतः प्राप्नोत्यात्मानमात्मना एतद्धि परमम् ब्रह्म परम् ब्रह्माधिगच्छति ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्पराः स्तूयमानो महादेव स्पृश्यते नियतात्मभिः भक्तानुकम्पी भगवानात्मसंस्थाकरो विभुः तथैव च मनुष्येषु ये मनुष्या प्रधानतः आस्तिकाश्रद्धधानाश्च बहुभिर्जन्मभिस्तवैः भक्त्या ह्यनन्यमीशानम् परम् देवम् सनातनम् कर्मणा मनसा वाचा भावेनामिततेजसः शयानाजाग्रमाणाश्च व्रजन्नुपविशंस्तथा उन्मिषन्निमिषंश्चैव चिन्तयन्तः पुनः पुनः शृण्वन्तः श्रावयन्तश्च कथयन्तश्च ते भवम् स्तुवन्तस्तूयमानाश्च पुष्यन्ति च रमन्ति च जन्मकोटिसहस्रेषु नानासंसारयोनिषु जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः भाविनः कारणम् चास्य सर्वमुक्तस्य सर्वदा एतद्देवेषु दुष्प्रापम् मनुष्येषु न लभ्यते నిర్విఘ్నా నిర్మలా రుద్రే భక్తిరవ్యభిచారిణీ తస్యైవ చ ప్రసాదేన భక్తిరుత్పద్యతే నృణాం యేన యాంతి పరాం సిద్ధిం తద్భావగతచేతసః యే సర్వభావానుగతాః ప్రపద్యంతే మహేశ్వరం ప్రపన్నవత్సలో దేవః సంసారార్తాన్ సముద్ధరేత్ ఏవమన్యేన కుర్వంతి దేవాః సంసారమోచనం మనుష్యాణామృతే దేవం నాణ్యాశక్తిస్తపోబలం ఇది తేనేంద్రకల్పేన భగవాన్ సదసత్పతిః కృత్తివాసా స్ఫుతః కృష్ణతండినా శుభబుద్ధినా స్తవమేతం భగవతో బ్రహ్మా స్వయమధారయత్ గీయరే చ న బుధ్యేత బ్రహ్మశంకర సన్నిధౌ ఇదం పుణ్యం పవిత్రం చ సర్వదా పాపనాశనం యోగదం మోక్షదం చైవ స్వర్గదం తోషదం తథా ఏవమేతత్ పఠం తేయ ఏక భక్త్యా తు శంకరే యా గతిః సాంఖ్య యోగానాం భ్రజంతే తాం గతిం తథా స్తవమేనం ప్రయత్నేన సదా రుద్రస్య సన్నిధౌ అబ్దమేకం చరేద్భక్తః ప్రాప్నుయా దీప్సితం ఫలం ఏతద్రహస్యం పరమం బ్రహ్మణో హృది సంస్థితం బ్రహ్మా ప్రోవాచ శక్రాయ శక్రః ప్రోవాచ మృత్యవే మృత్యుః ప్రోవాచ రుద్రేభ్యో రుద్రేభ్యస్తండిమాగమత్ మహతా తపసా ప్రాప్తం తండినా బ్రహ్మ సద్మని తండిః ప్రోవాచ శుక్రాయ గౌతమాయ చ భార్గవః వైవస్వతాయ మనవే గౌతమః ప్రాహ మాధవ నారాయణాయ సాధ్యాయ మనురిష్టాయ ధీమతే యమాయ ప్రాహ భగవాన్ సాధ్యో నారాయణోచ్యుతః నాచికేతాయ భగవానాహ వైవస్వతో యమః మార్కండేయాయ వార్ష్ణేయ నాచికేతోభ్యభాషత మార్కండేయాన్మయా ప్రాప్తో నియమేన జనార్దన తవాహ్యహమమిత్రఘ్నస్తవం దద్యామ్యవిశ్రుతం స్వర్గ్యమారోగ్యమాయుష్యం ధన్యం వేదేన సంమితం నాస్య విఘ్నం వికుర్వంతి దానవా యక్షరాక్షసాః పిశాచాయాతు ధానా వా గుహ్యకా భుజగా అపి యః పఠేత శుచిః సార్థం బ్రహ్మచారీ జితేంద్రియః అభగ్నయోగో వర్షం తు సోస్వమేధ ఫలం లభేత్ ఇది శ్రీమన్మహాభారతే ఆనుశాసనిక పర్వణి శ్రీశివసహస్రనామ స్తోత్రరత్నకథనం నామ సప్తదశోధ్యాయః శ్రీశివసహస్రనామ స్తోత్రరత్నం సమాప్తం. అథ శ్రీశివాష్టోత్తరశతనామస్తోత్రం శివో మహేశ్వరశంభుః పినాకీ శశిశేఖరః వామదేవో విరూపాక్షః కపర్దీ నీలలోహితః శంకరశూలపాణిశ్చ ఖట్వాంగీ విష్ణువల్లభః శిపివిష్టోంబికానాథ శ్రీకంఠో భక్తవత్సలః భవః శర్వస్త్రిలోకేశ శితికంఠః శివాప్రియః ఉగ్రః కపాలీ కామారిరంధకాసురసూదనః గంగాధరో లలాటాక్షః కాళకాలః కృపానిధిః భీమః పరశుహస్తశ్చ మృగపాణిర్జటాధరః కైలాసవాసీ కవచీ కఠోరస్త్రిపురాంతకః వృషాంకో వృషభారూఢో భస్మో ధూళిత విగ్రహః సామప్రియస్వరమయస్త్రయీ మూర్తిరలీశ్వరః सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः हविर्यज्ञमयः सोमः पञ्चभक्त्रः सदा शिवः विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः हिरण्यरेता दुर्धर्षो गिरीशो गिरिशो नखः भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः कृत्तिवासाः पुरा रातिर्भगवान् प्रमथाधिपः मृत्युञ्जयः सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः व्योमकेशो महासेन जनकश्चारुविक्रमः रुद्रो भूतपतिस्थानुरहिर्बुध्न्यो दिगम्बरः अष्टमूर्तिरनेकात्मा सात्विकः शुद्धविग्रहः शाश्वतः खण्डपरशुरजः पाशविमोचकः मृणः पशुपतिर्देवो महादेवो व्ययो हरिः पूषदन्तभिदव्यग्रो दक्षाध्वरहरोहरः भगनेत्रभिदव्यक्तः सहस्राक्षः सहस्रपात् अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः एवम् श्रीशम्भुदेवस्य नाम्नामष्टोत्तरम् शतम् श्रीशिवाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम्।